सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे एकं सुभाषितं पुनः स्मारयामि. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनं विद्या विहीनः पशुः. इत्युक्ते अत्र अस्मिन् सुभाषिते विद्यायाः बहूनि प्रयोजनानि दत्तानि. किन्तु विद्या अत्र विद्याभोगकरी, विद्यासुखकरी, विद्या निगूढगुप्तं धनं, विद्या एव धनं, तादृशरीत्या विद्यायाः प्रयोजनानि अस्मिन् श्लोके उक्तानि. अपि च अन्ततो गत्वा कविः वदति विद्याविहीनः पशुः इति वदति. पशुः इत्युक्ते एनिमल् इति वदति. अपि च गते सप्ताहे वयं यद्यपि तथापि तस्मिन् विषये वयं किञ्चित् चिन्तनं कृतवन्तः. अद्य वयम् अभ्यासपुस्तकस्य अन्तिमे पुटे तत्र कानिचन नूतनानि पदानि सन्ति, तानि पदानि परिशीलयामः. तदनन्तरं एका परिचिता कथा अस्ति. परिचिता कथा इत्युक्ते रामायणं बहु सुपरिचिता कथा एव. तां कथां संक्षेपरूपेण पठामः अद्य. तदर्थम् अहं करपत्राणि प्रेषितवती. अपि च यद्यपि तथापि योजयित्वा तत्र वाक्यानि लेखनीयानि. कादम्बरी भगिनी, कानिचन वाक्यानि अथवा भवती यद् लिखितवती तत् तानि वाक्यानि श्रावयतु.
अस्तु. यद्यपि विभीषणः रावणं त्यक्तवान् तथापि न अधर्मः. अलसाः यद्यपि दृढकायाः तथापि ते कार्यं न कुर्वन्ति. यद्यपि अहं सम्भाषणं करोमि तथापि मम तृप्तिः नास्ति.
ओ अस्तु अस्तु. इतोपि सन्ति
वा? यद्यपि तस्य समया अवकाशः अस्ति तथापि सः न गृहपाठं न करोति. तावदेव.
उत्तमम्, उत्तमरीत्या लिखितवती. भवती सम्यक् अवगतवती सर्वम्. उत्तमं भगिनि. अनन्तरं लक्ष्मी भगिनी भवती श्रावयतु.
अस्तु भगिनि. यद्यपि अद्य मम आरोग्यं सम्यक् नास्ति तथापि कार्यालयं गतवती. यद्यपि सः वृद्धः तदापि धावति. यद्यपि सः बहु कष्टे अस्ति तथापि न प्रकटयति.
उत्तमम्. अहमपि कानिचन वाक्यानि लिखितवती. यथा यद्यपि वयं सर्वे भारतीयाः तथापि वयं संस्कृतरामायणं न पठितवन्तः. यद्यपि वयं संस्कृतं पठामः तथापि तत् रामायणकाव्यं सम्पूर्णतया वयम् अवगन्तुं न शक्नुमः. यद्यपि रामायणं बहु उत्तमं काव्यं तथापि वयं न पठितवन्तः. संस्कृतरामायणं अपि च यद्यपि रामायणकाव्ये चतुर्विंशतिसहस्रं श्लोकाः सन्ति, चतुर्विंशतिसहस्रम् इत्युक्ते 24,000 श्लोकाः, चतुर्विंशतिसहस्रं श्लोकाः सन्ति, तथापि सर्वेषां श्लोकानाम् अध्ययनं वयं न कृतवन्तः. अथवा यद्यपि रामायणे बहवः श्लोकाः सन्ति तथापि तेषाम् अध्ययनम् अस्माभिः न कृतं कर्मणि प्रयोगे. अपि च यद्यपि आगामिसप्ताहात् आरभ्य मङ्गलवासरवर्गम् अहं न पाठयिष्यामि तथापि भवन्तः सर्वे संस्कृताध्ययनं मा त्यजन्तु, अथवा तथापि भवन्तः सर्वे संस्कृताध्ययनं कुर्वन्तु. यद्यपि अहं न पाठयिष्यामि तथापि अन्ये अध्यापकाः सम्यक् रीत्या पाठयन्तः सन्ति, अतः भवन्तः सर्वे तत्र गत्वा संस्कृताध्ययनं कुर्वन्तु. यद्यपि तथापि एतादृशरीत्या वाक्यानि लेखितुं शक्नुमः. अधुना अत्र अभ्यासपुस्तके 670 पुटे कानिचन पदानि सन्ति, तानि पदानि परिशीलयामः. कादम्बरी भगिनी भवती पठतु अत्र पदानि एकवारं पठतु.
अस्तु भगिनि.
तत्र अग्रिमे पुटे तत्र प्रथमपुटं वयं परिशीलितवन्तः, इत्युक्ते तत्र कस्मिन् पुटे स्मः वयं? पञ्चसप्ततितमे पुटे कानिचन पदानि सन्ति, तानि पदानि वयं गते सप्ताहे एव वयं परिशीलितवन्तः. अतः 670 पुटे पदानि सन्ति.
निर्वाचनम् एलेक्शन् नपुंसकलिङ्गम्. पत्रालयः पोस्ट् आफीस् पुलिङ्गम्. परश्वः डे आफ्टर् टुमारो.
पठतु.
परह्यः डे बिफोर् यस्टर्डे. परिणीतवान् मेरिड् पुल्लिङ्गं. पालितपुत्रः ब्राट् अप् सन् पुल्लिङ्गं. पितामहः फादर्स् फादर् पुल्लिङ्गं. पितामही फादर्स् मदर् स्त्रीलिङ्गं. पितृव्यः फादर्स् यङ्गर् ब्रदर् पुल्लिङ्गं. पितृव्या फादर्स् यङ्गर् ब्रदर्स् वैफ् स्त्रीलिङ्गं. प्रतीक्षा एक्स्पेक्टेशन् स्त्रीलिङ्गं. प्रपरश्वः डे आफ्टर् टुमारो. प्रवासः तोर् पुल्लिङ्गं. प्रस्ताय आफ्टर् सेटिङ्ग् औट्. प्रावारकं कोट् नपुंसकलिङ्गं. फेनकं सोप् नपुंसकलिङ्गं. बुभुक्षा हङ्गर् स्त्रीलिङ्गं. भागिनेयः सिस्टर् सन् पुल्लिङ्गं. भागिनेयि सिस्टर्स् डाटर् स्त्रीलिङ्गं. मलिनं डर्टि नपुंसकलिङ्गं. मशि इङ्क् स्त्रीलिङ्गं. मातामहः मदर्स् फादर् पुल्लिङ्गं. मातामही मदर्स् मदर् मातुलः मदर्स् ब्रदर् पुल्लिङ्गं मातुलानि मदर्स् ब्रदर्स् वैफ् स्त्रीलिङ्गं
भगिनि अत्र स्थगयतु इत्युक्ते अस्मिन् पुस्तके किञ्चित् लिखितमस्ति इतोपि प्रत्येकं पदं स्वीकृत्य तस्मिन् इतोपि के विषयाः सन्ति तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः अहं वदामि अत्र यत् लिखितमस्ति तद् भवती पठितवती तत् सम्यक् एव अत्र शीर्षिकां पश्यतु एकवारं हेडिङ्ग् तत्र शीर्षिका का इत्युक्ते कठिनशब्दानां सान्दर्भिक अर्थाः इति लिखितमस्ति कठिनशब्दाः वयं जानीमः शब्दः इति पुंलिङ्गपदं किन्तु अत्र कठिनशब्दः इत्युक्ते कीदृशशब्दः कठिनशब्दः तत्र समस्तपदं विशेषणपूर्वपदकर्मधारयः इति वदामः किन्तु अत्र पश्यतु कठिनशब्दः इति पदं समस्तपदं किन्तु कठिनशब्दानाम् इति लिखितमस्ति तत्र लक्ष्मी भगिनी किञ्चित् चिन्तयतु कठिनशब्दानां विभक्तिः का नो चेत् कादम्बरी भगिनी वा
द्वितीया विभक्ति
अत्र
षष्टिबहुवचनम्
षष्टिबहुवचनम् उत्तमम् इत्युक्ते तत्र षष्टि एकवचनं कथं भवति कठिनशब्दस्य तथा भवति रामस्य इत्युक्ते कठिनशब्दः इति पदं समस्तपदं किन्तु अकारान्तपदं यथा रामः राम तत्र अकारः श्रूयते अकारान्तपुल्लिङ्गपदं तथा एव रामस्य इव कठिनशब्दस्य किन्तु कठिनशब्दानाम् इति लिखितमस्ति इत्युक्ते षष्टिबहुवचनम् अपि च तत्र सान्दर्भिक अर्थाः इति लिखितमस्ति सान्दर्भिक इत्युक्ते किं वयं साधारणतया शृणुमः एकं पदं सन्दर्भः वयं जानीमः सन्दर्भः इत्युक्ते आङ्ग्लभाषायां लक्ष्मीभगिनी वदतु उत्तमं तदेव इत्युक्ते काण्टेक्स्ट् इति वदामः किन्तु अत्र किं लिखितमस्ति सान्दर्भिक न तु सन्दर्भः सान्दर्भिक अर्थाः इत्युक्ते सन्दर्भ इति पदात् सान्दर्भिक इति पदम् आगतं कथमागतम् इत्युक्ते तस्य कृते सूत्राणि सन्ति अष्टाध्याय्यां तत्र तद्धितप्रत्ययान्तरूपाणि इति वदामः इत्युक्ते दशरथस्य पुत्रः दाशरथी इत्युक्ते रामः किन्तु रामस्य अन्यनाम अस्ति दाशरथी तथा एव सीतायाः अन्यनाम मैथिली इत्युक्ते तत्र एतानि पदानि तद्धितान्तरूपाणि इति वदामः अत्रापि सान्दर्भिक अर्थाः इति पदमस्ति इत्युक्ते सन्दर्भमनुसृत्य तत्र सन्दर्भानुसारम् अथवा प्रसङ्गवशात् इति लिखामः इत्युक्ते कान्टेक्स्चुवल् मीनिङ्ग्स् इति वदामः न तु तस्य वस्तुतः तस्य योगार्थः भिन्नः रूढार्थः भिन्नः योगार्थः इत्युक्ते धातुतः प्रत्ययानां योजनेन कः अर्थः सिध्यति अथवा लोके लोकव्यवहारे तस्य अर्थः कः इति भिन्नं किन्तु अत्र सान्दर्भिकार्थाः दत्ताः अत्र प्रथमं पदं निर्वाचनम् इति पदमस्ति अत्र निर्वाचनम् इत्युक्ते एलेक्षन् इति लिखितमस्ति किन्तु तत् पदं कथमागतम् इत्युक्ते साधारणतया संस्कृतभाषायां बहूनि पदानि धातुतः आगच्छन्ति धातुः इत्युक्ते रूट् आफ् द वर्ब् धातुतः आगच्छन्ति अत्रापि पदं वच् इति धातुः अस्ति वच् धातोः रूपं वक्ति साधारणतया वयं जानीमः एकं पदं वदति अधुना कादम्बरी वदति अधुना लक्ष्मीभगिनी वदति वदति वयं जानीमः वदति इत्यस्मिन् अर्थे एव एकम् अन्यत् पदमस्ति संस्कृतभाषायां वक्ति इति पदं वच् धातुतः आगतम् अत्र निर् उपसर्गपूर्वकः वच् धातुः अपि च ल्युट् इति प्रत्ययः इति वदामः वाचनं निर्वाचनं किन्तु वचनम् इति पदमपि अस्ति वचनम् अस्ति अपि च वाचनम् अपि अस्ति, किन्तु अत्र तु निर्वाचनम् इति लिखितमस्ति. अनन्तरं पत्रालयः, पत्रालयः इत्युक्ते तत्र वयं जानीमः, साधारणतया शृणुमः पत्रालयः अपि समस्तपदम् इति वदामः. देवालयः इति वदामः, देवालयः इत्युक्ते देवस्य आलयः. अत्र आलयः इत्युक्ते प्रदेशः, स्थानं, स्थानम् अथवा निवासः, तादृश अर्थः आयाति. पत्रालयः इति वदामश्चेत् समस्तपदम् अस्ति, तस्य किं वदामः, समस्तपदस्य अर्थम् अवगन्तुं साधारणतया वयं विग्रहवाक्यं वदामः, पत्रस्य आलयः, पत्रालयः इति वदामः. अत्र पत्रस्य आलयः. अनन्तरं परश्वः वयं जानीमः अव्ययपदं, परह्यः. अत्र कादम्बरी भगिनी एकं लघुवाक्यं वदतु परश्वः योजयित्वा. परश्वः
पाठशाला नास्ति.
उत्तमं. लक्ष्मी भगिनी परह्यः योजयित्वा एकं वाक्यं, लघुवाक्यं वदतु.
परह्य अहं देवालयं गतवान्.
उत्तमम्. इत्युक्ते अत्र परश्वः इति वदामश्चेत् भविष्यत्कालार्थे वाक्यम् आयाति. परश्वः न भविष्यति, कक्ष्या न भविष्यति इति वदामः. श्वः इत्युक्ते भविष्यत्कालार्थे. परह्यः इति वदामश्चेत् तत्र वाक्यं भूतकालार्थे आयाति. तदर्थं भूतकालार्थरूपं चित्वा, चित्वा इत्युक्ते सेलेक्ट् कृत्वा वक्तव्यम्. अत्र भूतकालरूपं, भूतकालरूपम् इत्युक्ते वयं भूतकालार्थे तावत् रूपाणि पठितवन्तः. तावत् इत्युक्ते गतवान्, गतवती, तादृशानि रूपाणि पठितवन्तः. किन्तु अस्मिन् पुस्तके भूतकालार्थं बोधयितुं लङ्लकाररूपम् इत्युक्ते भूतकालार्थं लङ्रूपाणि न दत्तानि. किन्तु वयं लट्लकाररूपं स्वीकृत्य तदनन्तरं मा योजयित्वा अपि वयं लेखितुं शक्नुमः भूतकालार्थं बोधयितुं तथा. अनन्तरं परिणीतवान्, परिणीतवान् इति पदम् अत्र परि इति उपसर्गः अस्ति. संस्कृतभाषायां 22 द्वाविंशतिः उपसर्गाः सन्ति, तेषु अन्यतमः, one among them is परि. अत्र नी इति धातुः, नी धातोः रूपमेव वयं सर्वे जानीमः, सः पुस्तकं नयति, नी धातोः रूपं नयति. किन्तु अत्रापि नी धातोः रूपं तावत् परिणीतवान् दत्तमस्ति. कादम्बरी भगिनी स्त्रीलिङ्गे वदतु, परिणीतवान् स्त्रीलिङ्गे किं भवति? परिणीतवती. उत्तमम्. यदि नपुंसकलिङ्गे वक्तुमिच्छामश्चेत् परिणीतवत्. नपुंसकलिङ्गे अपि रूपाणि भवन्ति, क्तवत्पन्तरूपाणि नपुंसकलिङ्गे अपि भवन्ति. उत्तमम्. अनन्तरं पालितपुत्रः, पालितपुत्रः इति पदमस्ति, किन्तु अत्रापि पालित, एतत् पदमपि समस्तपदं. पालित इति क्ताप्रत्ययान्तरूपम् अस्ति. साधारणतया वयं एकं क्रियापदं शृणुमः, पालयति इति क्रियापदं शृणुमः, तस्मात् धातुतः एव इदं पदम् आगतं, पालयति इति पदमस्ति. पितामहः, पितामही, तत्र कापि समस्या नास्ति. किन्तु अहम् एकं वक्तुमिच्छामि, पितामहः इत्युक्ते अत्र फादर्, फादर् इति दत्तमस्ति. किन्तु साहित्यं यदा वयं साहित्यं पठामः तत्र पितामहः इत्युक्ते ब्रह्मा इति अर्थः अपि अस्ति. पितामही, पितृव्यः, वयं जानीमः पितृव्यः, पितृव्या. वयं तत्र कुत्र बन्धुवाचकशब्दान् वयं पठितवन्तः तस्मिन् तस्मिन् पुटे वयम् एतानि पदानि वयं पूर्वमेव परिशीलितवन्तः बन्धुवाचकशब्दानां विषये. पितृव्यः, पितृव्या. अनन्तरम् अत्र एकं पदमस्ति प्रतीक्षा इति पदमस्ति. प्रतीक्षा इत्युक्ते अत्र आकारान्तस्त्रीलिङ्गपदं यथा लता शब्दवत्. किन्तु एतत् पदं कथमागतम् इति चिन्तयामश्चेत् संस्कृतभाषायाम् एकः धातुः अस्ति ईक्ष धातुः. ईक्ष धातोः रूपम् ईक्षते. ईक्षते इत्युक्ते पश्यति इति अर्थः ईक्षते. किन्तु पश्यति इति पदं परस्मैपदी. परस्मैपदी वयम् अग्रे गत्वा परस्मैपदिनः के, आत्मनेपदिनः के, किमर्थं परस्मैपदी इति वदामः, एतत् सर्वं वयं पठिष्यामः. किन्तु अत्र ईक्ष धातोः रूपम् ईक्षते आत्मनेपदिरूपम्. ईक्षधातोः रूपमेव अत्र दत्तमस्ति. प्रति उपसर्गपूर्वकः ईक्षधातुः, तस्मात् प्रतीक्षा इति रूपम् आगच्छति. ईक्षते इत्युक्ते पश्यति इति अर्थः. प्रपरश्वः वयं जानीमः. प्रवासः एतदपि पदं कथमागतम् इत्युक्ते प्र इति उपसर्गः अस्ति. संस्कृतभाषायां वस् इति धातुः अस्ति. वस् धातोः रूपं वसति. वसति अत्र वसति योजयित्वा लक्ष्मीपति एकं लघुवाक्यं वदतु. वसति
वसति.
उत्तमं, तदेव. सः गृहे वसति. अहं गृहे वसामि. अहं गृहे वसामि. तावदेव, तदेव स एव धातुः. अत्र वस् धातोः रूपमेव वासः. किन्तु अत्र प्रत्ययस्य नाम अस्ति घञ् प्रत्ययः इति वदामः. किन्तु प्रा इति उपसर्गः, वस् धातुः, घञ् इति प्रत्ययः. अपि च प्रस्थाय इति पदमस्ति. अत्र प्रस्थाय यदि पदं पश्यामश्चेत् भवती किम् अवगतवती? अत्र कादम्बरी भगिनी एतत् पदं कथं दृश्यते? हौ इट् अपियर्स्? वयं अवगन्तुं शक्नुमः कथम् इत्युक्ते अत्र अहं वदामि यदि भवती न जानाति चेत्. अत्र वयं पूर्वमेव पठितवन्तः किं क्त्वान्तरूपाणि. क्त्वा दृष्ट्वा, पठित्वा, गत्वा, एतादृशानि पदानि वयं पठितवन्तः. क्त्वान्तरूपं कुत्र आयाति? एकस्मिन्नेव समये क्रियाद्वयम् अस्ति चेत् तत्र पूर्वकालिकीक्रियायाः क्त्वान्तरूपं भवति. किन्तु तत्र यदि उपसर्गः अस्ति चेत् ल्यबन्तरूपम् आयाति. अत्र अपि ल्यबन्तरूपम् एतत् पदं प्रस्थाय. प्रायः उपसर्गः अस्ति इति कारणतः यत्र यत्र धातोः पूर्वम् उपसर्गः अस्ति तत्र ल्यबन्तरूपम् आयाति. अत्र प्र उपसर्गपूर्वकः स्थाधातुः. स्थाधातोः रूपमेव तिष्ठति. सः कुत्र तिष्ठति इति वदामः. स्थाधातोः रूपं तिष्ठति. किन्तु अत्र उपसर्गः अस्ति इति कृत्वा तत्र ल्यबन्तरूपं योजनीयं. वयं पठितवन्तः एकस्मिन् समये अस्माकम् अभ्यासपुस्तके एव आगच्छति. गच्छति इत्यस्य रूपं कादम्बरी भगिनी वदतु. गच्छति इत्यस्य क्त्वान्तरूपं किं? क्त्वा.
गत्वा.
उत्तमं, गत्वा. आगच्छति?
आगत्य.
उत्तमम्, उत्तमं भगिनी, तदेव. इत्युक्ते तत्र गम् गच्छति तत्र गत्वा भवति. किन्तु आगच्छति तत्र आ इति उपसर्गः अस्ति इति कारणतः आगत्य ल्यबन्तरूपं सिद्ध्यति. तथा एव अत्रापि प्रस्थाय इति ल्यबन्तरूपम्. अपि च प्रावारकं. प्रावारकम् इत्युक्ते कोट् इति दत्तमस्ति. किन्तु अत्र प्रा इति उपसर्गः अस्ति, आ इति उपसर्गः अस्ति, अपि च वृ इति धातुः. तत्र वृ धातोः रूपमेव वृणोति इति रूपमस्ति. तस्मात् एतत् पदमागतं. प्रावारकम् तत्र आवृणोति इति पदमस्ति, इत्युक्ते आवरणं करोति इत्यस्मिन् अर्थे सः धातुः एव अत्रापि अस्ति. अत्र वयं फेनकम् इति पदमस्ति. अत्र किमर्थं वैयाकरणाः फेनकम् इति नाम दत्तवन्तः? सोप् इत्युक्ते फेनकं, किमर्थं ते तादृशं नाम दत्तवन्तः इत्युक्ते, तत्र संस्कृतभाषायां फेनः इत्युक्ते, ऊहां करोतु कोऽपि वदति वा, तत्र फेनः
क्लीन्,
किञ्चित् उच्चैः वदतु भगि,
क्लीन्
फेनः इत्युक्ते फोम् आर् सड्स्, इत्युक्ते यदा वयं फेनकं फेनकस्य उपयोगं कुर्मः तदा फेनः आयाति. तत्र फेनः इत्युक्ते फोम् अथवा सड्स् इति अर्थः. तदर्थमेव तस्य नाम, यदा वयं जलं जले तस्य उपयोगं कुर्मः तदा फेनः आयाति, अतः तस्य नाम फेनकम्. अनन्तरम् अत्र बुभुक्षा इति पदमस्ति. अत्र वयं जानीमः बुभुक्षा इत्युक्ते हङ्गर् इति लिखितमस्ति, किन्तु अत्र किञ्चित् विशिष्टता अस्ति. अत्र बुभुक्षा इत्युक्ते भोक्तुम् इच्छा, बुभुक्षा इति वदामः. मम बुभुक्षा अस्ति इत्युक्ते अधुना अहम् आहार मम भोक्तुम् इच्छा अस्ति इति अर्थः. यदि वयं भोक्तुम् इच्छा इति वदामश्चेत् तस्मिन् स्थाने केवलं बुभुक्षा इति वदामश्चेत् पर्याप्तं? बहूनि पदानि किमर्थं? बहूनां पदानां योजनेन तत्र यदि अस्माकं समयाभावः अस्ति अथवा तादृशेषु समयेषु केवलं बुभुक्षा वदामश्चेत् पर्याप्तं, किन्तु बुभुक्षा इत्युक्ते भोक्तुम् इच्छा इति अर्थः. तथा एव पातुम् इच्छा पिपासा, मोक्तुम् इच्छा मुमुक्षा, कर्तुं मम कर्तुम् इच्छा अस्ति इत्युक्ते मम चिकीर्षा अस्ति इत्युक्ते एतादृशानि पदानि संस्कृतभाषायां बहूनि सन्ति. तेषां नाम अस्ति सन्नन्तरूपाणि, सन् प्रत्ययः इति वदामः, सन् प्रत्ययान्तरूपाणि इति वदामः. तेषु एकः विशेषः अस्ति, तत् किम् इत्युक्ते तेषु पदेषु साधारणतया द्वित्वं भवति. द्वित्वम् इत्युक्ते एकमेव अक्षरं द्विवारम् आयाति, बुभुक्षा पिपासा चिकीर्षा मुमुक्षा, अपि च तादृशानि पदानि. तथा एव अत्र बुभुक्षा लिखितमस्ति. भागिनेयः भागिनेयी वयं जानीमः. अत्र भागिनेयः कः, लक्ष्मीभगिनी वदतु. उत्तमम् उत्तमं, वयं पठितवन्तः भगिन्याः पुत्रः भागिनेयः. भागिनेयी इत्युक्ते भगिन्याः पुत्री इति अर्थः. अपि च मलिनं वयं जानीमः एव, मशी, मशी इत्युक्ते इङ्क्, किन्तु इङ्क् बाटल् वदामश्चेत् किं वदामः? इङ्क् बाटल् इत्युक्ते मशी कूपी इति भवति, कूपी, कूपी इत्युक्ते बाटल्, मशी कूपी. अनन्तरम् अत्र मातामहः मातामही लिखितमस्ति, मातुलः मातुलानि. वयं बन्धुवाचकशब्दान् यदा पठितवन्तः तदा वयं विस्तृतरूपेण वयं पठितवन्तः, तत् त्यजामः अधुना. अधुना लक्ष्मीभगिनी भवती पठतु अन्यानि पदानि.
मूल्यं प्रैस् नपुंसकलिङ्ग, मोदकं स्वीट् डिश् नपुंसकलिङ्ग, यन्त्रागारं फ्याक्टरी नपुंसकलिङ्ग, लेखः आर्टिकल् पुल्लिङ्ग, लोकयानं बस् नपुंसकलिङ्ग, अस्ति गृहं लाड्जिङ्ग् नपुंसकलिङ्ग वातावरणम् अट्मास्फियर् नपुंसकलिङ्ग विक्रेता सेलर् पुल्लिङ्ग वितारकः सप्लायर् पुल्लिङ्ग वित्तकोशः बैंक पुल्लिंग विद्युत इलेक्ट्रिसिटी स्त्रीलिंग विपणी मार्केट पुल्लिंग व्यंजनम करी नपुंसकलिंग शिरस्त्रम कैप नपुंसकलिंग श्लोक वर्स पुल्लिंग श्वः टुमारो अव्ययम् चक्षुरः फादर इन ला श्रुः
अत्र अत्र पूर्वं पदमस्ति श्वशुरः श्वश्रूः
श्वश्रूः मदर इन ला समार्जनी ब्रूम स्त्रीलिंग सर्वत्र एवरीवेयर सूच्योषधम इंजेक्शन नपुंसकलिंग सेवकः वेटर पुल्लिंग स्थानकम स्टेशन नपुंसकलिंग स्नुषा डॉटर इन ला स्त्रीलिंग स्वायत्त संस्था स्वायत्त संस्था प्राइवेट कंपनी स्त्रीलिंग ह्यः टुडे अव्ययम्
उत्तमम् इत्युक्ते अत्र एतानि पदानि एतेषां पदानां विषये इतोपि किञ्चित् परिशीलयामः. अत्र मूल्यम् इति पदमस्ति. मूल्यम् इत्युक्ते नपुंसकलिङ्गपदं प्रैस् इति अर्थः. अत्र एतत् पदमपि धातुतः एव आयाति, मूल् धातुतः, किन्तु यत् इति प्रत्ययः अस्ति. मोदकं मोदकम् इति पदं मुद् इति धातोः रूपं, मुद् धातोः रूपमेव मोदते. मोदते इत्युक्ते सः सन्तोषम् अनुभवति इति अर्थः. मोदते मोदते इति कथं कस्मात् धातुतः आयाति इत्युक्ते मुद् धातोः रूपं मोदते. किन्तु अत्र मोदकम् इत्युक्ते तत्र भिन्नप्रत्ययः अस्ति तत्र. अनन्तरं यन्त्रागारम् एतत् पदमपि समस्तपदम्. अत्र यन्त्र प्लस् आगारम् इति वदामः, तत्र सन्धिः भवति, सवर्णदीर्घसन्धिः. आगारम् इत्युक्ते ड्वेल्लिङ्ग् प्लेस् इत्युक्ते निवासः अथवा प्रदेशः आवासः, तादृश अर्थाः सन्ति. लेखः इति पदं लिख् धातोः रूपं, लिख् धातोः रूपं वयं जानीमः, लिखति. सः पुस्तकं लिखति, सः गृहपाठं लिखति इति वयं पठितवन्तः. लिख् धातोः रूपमेव लेखः तथा आयाति. अनन्तरं लोकयानम् एतत् पदमपि समस्तपदम्. अत्र यानं लोकः इति पदमस्ति, अपि च यानम् इत्युक्ते, यानम् इति पदं कथमागतम् इत्युक्ते, संस्कृतभाषायां साधारणतया वयं किं वदामः, सः बालकः गच्छति. गच्छति वयं जानीमः, किन्तु गच्छति इत्यस्मिन् अर्धे एव अन्यः धातु, अन्यत् क्रियापदमस्ति, याति, आयाति. याति इत्युक्ते गच्छति, आयाति इत्युक्ते आगच्छति. या धातोः रूपं याति, या धातुतः अत्र यानम् इति पदमागतम्. अत्र यानम् इति पदं या धातोः ल्युट् ल्युट् प्रत्ययान्तरूपम्. अपि च वसतिगृहम् एतदपि समस्तपदम्. अपि च वातावरणं, वातावरणम् इत्युक्ते वातः इत्युक्ते संस्कृतभाषायां वायुः इति अर्थः. आवरणम् इत्युक्ते आवृणोति इत्युक्ते वातावरणे वायुः अस्ति तदेव वार्तः अस्ति. तत्र वयं पठितवन्तः अस्माकम् अभ्यासपुस्तके वातायनं, वातायनात् वायुः अन्तः आगच्छति अथवा बहिष्टात् बहिः गच्छति. वातायनम् इत्युक्ते विण्डो, वयं पठितवन्तः. तथा एव अत्र वातावरणम् इति पदं, नपुंसकलिङ्गपदं. विक्रेता इति पदं, विक्रेता इति पदं कीदृशं पदम् इत्युक्ते, तत्र वयं साधारणतया एकं क्रियापदं वयं जानीमः, अहम् आपणं गत्वा पुस्तकं क्रीणामि, पुस्तकं क्रीणामि. तत्र क्रीधातुः क्रियादिगणः तस्मिन् गणे अस्ति. क्रीधातोः रूपमेव तृच्, तृच् इति प्रत्ययः अस्ति. तृच् प्रत्ययान्तरूपमेव क्रेता. अत्र रूपं कादम्बरी भगिनी, अत्र रूपं विक्रेता इत्यस्य रूपाणि वक्तुमिच्छामश्चेत् पिताशब्दस्य रूपाणि ज्ञातव्यानि. पिता रूपाणि कथं वदामः? कादम्बरी भगिनी वदति वा पिताशब्दस्य रूपाणि जानाति वा? चिन्ता मास्तु. अत्र पिताशब्दस्य रूपाणि पिता, पितरौ, पितरः. तथा वक्तव्यं. पिताशब्दः ऋकारान्तपदं, तथा एव अत्रापि विक्रेता इति पदं ऋकारान्तपदं. तृच् इति प्रत्ययः अस्ति. विक्रेता, क्रेता इत्युक्ते बयर्, विक्रेता इत्युक्ते सेलर्. अत्र वि इति उपसर्गस्य योजनेन तादृश अर्थभेदं, अर्थभेदः दृश्यते अत्र. अत्र क्रेता इति पदमपि ऋकारान्तपदं, विक्रेता अपि ऋकारान्तपदं, यथा माता शब्दवत् पिता शब्दवत्. किन्तु तत्र माता शब्दवत् नास्ति, किञ्चित् विक्रेतारौ, विक्रेता, विक्रेतारौ, विक्रेतारः, तथा प्रथमविभक्त्यन्तरूपाणि वक्तव्यानि. वितारकः, वितारकः कः इत्युक्ते यः वितरणं करोति सः वितारकः. वितरणम् इत्युक्ते डिस्ट्रिब्यूशन् अथवा सर्विङ्ग्. यः सर्विङ्ग् करोति अथवा डिस्ट्रिब्यूशन् करोति सः वितारकः. अत्र एकं पदं ज्ञातव्यम् अस्माभिः. लिस्ट्, लिस्ट् इति वदामश्चेत् किं वदामः इत्युक्ते संस्कृतभाषायां वितरणसूचिः इति पदमस्ति. वितरणसूचिः इत्युक्ते लिस्ट् आफ् थिङ्ग्स्, लिस्ट् आफ् ऐटम्स्. अनन्तरम् अत्र वित्तकोशः इति पदमस्ति. कोशः इत्युक्ते कण्टैनर्. संस्कृतभाषायां वित्तम् इत्युक्ते धनम्. तत्र वित्तकोशे धनम् अस्ति, अतः तस्य नाम वित्तकोशः. वित्तम् इति पदं नपुंसकलिङ्गपदं, कोशः तु पुंलिङ्गपदं, किन्तु अत्र समस्तपदमस्ति. वित्तकोशः इत्युक्ते बेङ्क्. विद्युत्, विद्युत् इति पदं सकारान्तपदं. विद्युत्, विद्युत्, विद्युतौ, विद्युतः, सकारान्तपदं. तथा रूपाणि वक्तव्यानि. किन्तु विद्युत् इति पदं स्त्रीलिङ्गपदं, पश्यन्तु अत्र आवरणे दत्तमस्ति स्त्रीलिङ्गपदम् एतत् पदम्. अपि च विपणिः, विपणिः इत्युक्ते मार्केट्. किन्तु संस्कृतभाषायां विपणी इति पदमपि अस्ति. विपणी इत्युक्ते व्यापारी इति अर्थः. विपणिः इत्युक्ते मार्केट्, किन्तु विपणी, तत्र अन्ते दीर्घ ईकारः आयाति, किन्तु ईकारान्तपदं नास्ति तत्र, नकारान्तपदं, नकारान्तपदम् अस्ति. अतः विपणिम् इति प्रातिपदिकमस्ति, किन्तु रूपं विपणी इति भवति. तत्रापि अर्थः तु व्यापारी इति अर्थः. यः विपणे, विपण्यां कार्यं करोति, विपण्याम् इति न वदामः, पुंलिङ्गपदम् इति दत्तमस्ति. अतः यः विपणे कार्यं करोति सः व्यापारी अथवा विपणी. अपि च अत्र व्यञ्जनम् इति पदमस्ति. व्यञ्जनम् इत्युक्ते करी. अपि च व्यजनम् अपि अस्ति. अत्र व्यञ्जनम् लिखितमस्ति. किन्तु व्यजनं व्यजनम् इत्युक्ते फ़ेन् इति वदामः. अपि च शिरस्त्रं शिरस्त्रम् इत्युक्ते केप्. किन्तु शिरस्त्राणम् इति वदामश्चेत् हेल्मेट् इति भवति. शिरस्त्रं भिन्नं पदं, शिरस्त्राणं भिन्नं पदं. श्लोकः इत्युक्ते वयं जानीमः वर्स् श्वः टुमारो श्वशुरः श्वश्रूः वयं जानीमः. अनन्तरम् अत्र सम्मार्जनी इति पदमस्ति. एतत् पदं कथम् आगतं? सम् इति उपसर्गः अस्ति, मृज् इति धातुः अस्ति, चुरादिगणीयधातुः. तत्र मार्जयति इति क्रियापदं, गच्छति शब्दवत् गच्छति इव नास्ति, किन्तु चुरादिगणे कथयति चोरयति तादृशानि पदानि तस्मिन् गणे भवन्ति. अत्र मार्जयति इति क्रियापदमस्ति, मृज् धातोः रूपमेव मार्जनी. किन्तु मार्जनी इति पदात् पूर्वं सम् इति उपसर्गः अस्ति, अतः सम्मार्जनी इति पदमस्ति. अत्र सम्मार्जनी इत्युक्ते ब्रूम् इत्युक्ते सम्मार्जनी इत्युक्ते सम्यक् रीत्या मार्जनं करोति. एतत् उपकरणम्, एतत् केवलम् एकम् उपकरणं. वयं पठितवन्तः सम्मार्जन्या अहं गृहं प्रक्षालयामि, शुभ्रं करोमि. सम्मार्जन्या किमर्थं सम्मार्जन्या? एतत् उपकरणं, यदा कदापि उपकरण उपकरणं उपयुज्य कार्यं कुर्मः तदा तृतीयाविभक्तेः उपयोगं कुर्मः. सम्मार्जनी इति पदस्य तृतीयान्तं रूपं सम्मार्जन्या इति लिखितमस्ति. सर्वत्र एवर्वेर् सूच्यौषधम्, एतदपि समस्तपदं. सूचिः सेवकः इति पदमस्ति. सेवकः इति पदं तत्र संस्कृतभाषायाम् एकः धातुः अस्ति, सेव् धातुः. सेव् धातोः रूपमेव सेवते, किन्तु आत्मनेपदि. वयं न पठितवन्तः आत्मनेपदि. साधारणतया तत्र भेदः कः इत्युक्ते गच्छति. साधारणतया परस्मैपदी धातुषु अन्ते ति आयति. कथं? गच्छति, पठति, खादति, तथा. किन्तु यदि क्रियापदम् आत्मनेपदि अस्ति चेत् सेवते, वन्दते, तादृशानि रूपाणि, वर्तते, दयते, वीक्षते, लज्जते, वर्धते, शोभते, तथा. इत्युक्ते अन्ते ते आयाति. इत्युक्ते केचन धातवः आत्मनेपदिनः, केचन धातवः परस्मैपदिनः, किन्तु केचन धातवः उभयपदिनः संस्कृतभाषायाम्. अत्र सेव् धातोः रूपम् एव सेवते. किन्तु अत्र सेवकः लिखितमस्ति. सेवकः इति नुवल् इति एकः प्रत्ययः अस्ति. सेव् धातुतः नुवल् प्रत्ययस्य योजनेन तत्र सेवकः इति रूपम् आयाति. सेवकः इत्युक्ते वैटर्. स्थानकम् इत्युक्ते तत्र स्थानकं, स्था धातोः रूपमेव तिष्ठति. मम किं वदामः? तिष्ठति योजयित्वा एकं वाक्यं वदतु लक्ष्मी भगिनी. तिष्ठति योजयित्वा लघुवाक्यं, लघुवाक्यं.
सः तिष्ठति,
सः तिष्ठति, तावदेव. अत्र स्था धातोः रूपमेव तिष्ठति. किन्तु स्था धातोः रूपमेव स्थानम्. किन्तु अत्र स्थानम् इति लुडन्तपदं, किन्तु अत्र स्थानकम् इति अस्ति इति कृत्वा तत्र भिन्नप्रत्ययाः, अन्ये प्रत्ययाः सन्ति. स्नुषा इत्युक्ते स्नुषा इति आकारान्तपदं, डाटरेल्ला इति अत्र लिखितमस्ति. स्वायत्तसंस्था, अत्र पश्यन्तु स्वायत्तसंस्था इत्युक्ते अत्र प्रैवेट् कम्पनी इति लिखितमस्ति. किन्तु अहं चिन्तयामि अत्र अटानिमस् इण्डिपेण्डेण्ट् इण्डिपेण्डेण्ट् इति लेखनीयं. स्वायत्त, स्वायत्त इत्युक्ते अत्र किं वदामः, स्वयमेव तत्र ये ये उद्योगिनः सन्ति तस्मिन् ते स्वयं कार्यं कुर्वन्ति तत्र स्वायत्तसंस्थायाम्. अत्र प्रैवेट् कम्पेनी इति इत्यस्मिन् स्थाने अटानिमस् इण्डिपेण्डेण्ट् तादृशरीत्या वन्स् ओन् सेल्फ् तादृशरीत्या लिखामश्चेत् इतोपि सम्यक् भवति. अत्र संस्था इति पदमपि स्थाधातोः रूपमेव. अनन्तरम् अन्तिमपदं ह्यः, ह्यः एव वयं पठितवन्तः. अत्र कादम्बरी भगिनी ह्यः योजयित्वा एकं वाक्यं, लघुवाक्यं वदतु.
ह्यः मम जन्मदिनम् आसीत्.
ओ सत्यं वा? केवलम् उक्तवती वा?
आम्.
अस्तु, शुभाशयाः. अनन्तरं
वयं
उत्तमं भगिनि. अस्तु, अनन्तरम् अत्र अस्माकं पार्श्वे अधुना अभ्यासपुस्तकं परिसमाप्तम्. अतः वयं किञ्चित् कालपर्यन्तं वयम् अत्र एकां कथां पठामः. तत्र द्वितीयं करपत्रं पुरतः स्थापयन्तु. अत्र किञ्चित् संक्षेपरामायणम् इति कथा अस्ति. कथा तु कथा वयं जानीमः एव, किन्तु अत्र पदानां विषये किञ्चित् किञ्चित् परिशीलनं कुर्मः. अत्र अत्र कादम्बरी भगिनी भवती पठतु अत्र इदम् अवधेयम्.
अस्तु, इदम् अवधेयं भूतकालार्थं बोधयितुं केचन प्रकाराः भवन्ति. ते लिङ्ग् ते लङ् लकारः, दशमपाठः, स्मभूत कृदन्तः कृदन्तः इत्यादयः च उदाहरणानि. लङ् लकारे बालकः.
आं भगिनि, अत्र किञ्चित् वदामि. अत्र इदम् अवधेयम् इति पदमस्ति. एतत् पदं कीदृशं पदम् इत्युक्ते इदम् इदम् इत्युक्ते कीदृशं पदम् इति पश्यामश्चेत् भवती जानाति एव, एतत् तत् इति जानाति एव, तादृशं पदमेव इदम्. अत्र इदम् इति पदं मकारान्तपदं किन्तु नपुंसकलिङ्गपदम्. इदं शब्दस्य रूपाणि पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि भवन्ति. इदं शब्दस्य रूपाणि कथं भवन्ति पुंलिङ्गे कथं भवन्ति इत्युक्ते अयम्, इमौ, इमे. स्त्रीलिङ्गे इयं भवति किन्तु नपुंसकलिङ्गे इदं भवति. इदम् अवधेयम् इत्युक्ते यु नीड् टु पे अटेन्शन् इति अर्थः अवधेयं. भूतकालार्थं बोधयितुम् अत्र पश्यतु, अत्र कथायाम् उपरि किं लिखितमस्ति, भूतकालार्थं बोधयितुं केचन प्रकाराः सन्ति इत्युक्ते अत्र वयं पूर्वं पठितवन्तः अभ्यासपुस्तके भूतकालार्थं बोधयितुं केचन प्रकाराः सन्ति इत्युक्ते भिन्नप्रकाररीत्या भिन्नरीत्या वयं भूतकालार्थं वक्तुं शक्नुमः. केचन प्रकाराः इत्युक्ते भिन्नरीत्या कथं वक्तुं शक्नुमः इत्युक्ते अत्र प्रथमप्रकारः अस्ति लङ्लकारः. लङ्लकारः वयं न पठितवन्तः, अग्रे गत्वा गीतासोपानं पुस्तके वा अग्रे गत्वा वयं पठिष्यामः. लङ्लकारः इत्युक्ते गच्छति इति वयं जानीमः, गच्छति इति पदस्य लङ्लकाररूपम् अगच्छत् इति भवति. तथापि अगच्छत् वदामश्चेदपि लङ्लकाररूपमेव. तत् तथा वदामश्चेत् एकः प्रकारकः. द्वितीयप्रकारकः कः? स्म इत्युक्ते स्म वयं पठितवन्तः लट्लकाररूपं स्वीकृत्य तस्य अनन्तरं तस्य अन्ते स्मयोजनेन भूतकालार्थं सिद्ध्यति. वयं पठितवन्तः सः पठति स्म, सः गच्छति स्म, तत् वयं पठितवन्तः. तृतीयप्रकारकः अस्ति भूतकृदन्तः इत्या. भूतकृदन्तः इत्युक्ते स्तवतु, सः गतवान्, सा बालिका गतवती, एव भूतकृदन्तः. भूत इत्युक्ते भूतकालार्थं बोधयति. कृदन्तः इत्युक्ते किम् इत्युक्ते धातुतः यत् पदम् आयाति तत् पदं तस्य अन्ते कृत् इति प्रत्ययः योजनेन कृदन्तपदम् आयाति. कृदन्तपदं पदानि क्रिया पदानि कृदन्तपदानि तिङ्गन्तपदानि. तिङ्गन्तपदम् इत्युक्ते गच्छति इति पदं तिङ्गन्तपदं. किन्तु गतवान्, गतवती, पठितवान्, पठितवती एतानि पदानि कृदन्तपदानि इति वदामः. इत्युक्ते तत्र धातुतः कृत् इति प्रत्ययं योजयामः. किन्तु गच्छति इत्यस्मिन् पदे धातुतः तिङ् प्रत्ययं योजयामः, अतः तिङ्गन्तपदम् इति वदामः. अतः इत्यादयः च इति लिखितमस्ति. अत्र उदाहरणानि लङ्लकारे बालकः, पश्यतु अत्र बालकः अपठत्, बालिका अपठत्, शिष्याः अवदन्. पश्यन्तु अत्र अपठत्, अपठत्, अवदन् एतानि पदानि लङ्लकाररूपाणि. इत्युक्ते पठति इति शब्दस्य भूतकालरूपम् अपठत्, वदति अथवा वदन्ति. अत्र अवदन् इति लिखितमस्ति बहुवचने. वदन्ति इति पदस्य वदति, वदतः, वदन्ति. वयं जानीमः वदन्ति शब्दस्य बहुवचनरूपं तत्र भूतकाले अवदन्. ईदृशरीत्या अपि वयं वाक्यं लेखितुं शक्नुमः. प्रथमप्रकारकः लङ्लकारः. साधारणतया वयं किं पठितवन्तः, लट्लकारः. लट्लकारः इत्युक्ते वर्तमानकालः, इत्युक्ते पठति लट्लकाररूपं वर्तमानकालरूपं. किन्तु अपठत् लङ्लकाररूपं. स्मयोजनेन अपि भूतकालार्थं सिद्ध्यति. अत्र बालकः, पश्यन्तु द्वितीयं वाक्यं, बालकः पठति स्म, बालिका पठति स्म, शिष्याः वदन्ति स्म. इत्युक्ते केवलं भूतकालरूपं स्वीकृत्य स्मयोजनेन तत्र भूतकालार्थं सिद्ध्यति. अत्र पश्यन्तु आवरणे किं लिखितमस्ति, यद्यपि क्रियापदं लट्लकारे भवति, स्मयोगे लङ्लकारस्य अर्थः बोधितः भवति. वयं जानीमः यद्यपि तथापि, यद्यपि तथापि प्रयोगः वयम् अद्य एव पठितवन्तः. यद्यपि क्रियापदम् उपरितनवाक्ये, पश्यन्तु पुनः एकवारं कादम्बरी भगिनी तद्वाक्यं पठतु, बालकः पठति स्म.
बालकः पठति स्म, बालिका पठति स्म, शिष्याः वदन्ति स्म.
इत्युक्ते एतेषु त्रिषु वाक्येषु यद्यपि क्रियापदं, क्रियापदम् इत्युक्ते पठति, पठति, वदन्ति, क्रियापदं लट्लकारे वर्तमानकाले अस्ति, किन्तु अन्ते स्मयोजनेन लङ्लकारस्य अर्थः बोधितः भवति इति लिखितमस्ति. तत् वयं जानीमः एव. अपि च भूतकृदन्तः, भूतकृदन्तः इत्युक्ते अहं पूर्वमेव उक्तवती, धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदम् आयाति. अत्र त्रीणि वाक्यानि सन्ति. कादम्बरी भगिनी पठतु एतानि वाक्यानि.
बालकः पठितवान्, बालिका पठितवती, शिष्याः उक्तवन्तः.
उत्तमम्, उत्तमम्. इत्युक्ते अत्र पश्यतु, बालकः पठितवान्, पूर्वं वाक्यमस्ति बालकः अपठत् इति वदामश्चेत् लङ् रूपं बालकः पठितवान्, अत्र एतेषु वाक्येषु पठितवान्, पठितवती, उक्तवन्तः, एतानि पदानि कृदन्तपदानि इति वदामः. इत्युक्ते कृदन्तपदं योजयित्वा अपि वाक्यरचनां कर्तुं शक्नुमः भूतकालार्थं बोधयितुं. वि आर् यूसिङ्ग् आल् दीस् त्री वेस् टु इण्डिकेट् पास्ट् टेन्स्. दिस् त्री आर् त्री डिफ़रेण्ट् वेस् आफ् कन्स्ट्रक्टिङ्ग् ए सेण्टेन्स्. बालकः पठितवान्, बालिका पठितवती, शिष्याः उक्तवन्तः. अत्र उक्तवन्तः, कादम्बरी भगिनी भवती वदतु रूपाणि. अत्र बहुवचने शिष्याः बहुवचनमस्ति इति कृत्वा शिष्याः उक्तवन्तः. एकवचने वदतु.
शिष्याः उक्तवान्.
सुन्दरं, शिष्यः उक्तवान्, तावदेव. अत्र भूतकृदन्ताः तिङन्ताः न इति स्मर्त. भूतकृदन्ताः तिङन्ताः क्रियापदानि न इति स्मर्तव्यं, ते सुबन्ताः एव. अत्र किं लिखितमस्ति इत्युक्ते पठति इति पदं तिङन्तपदम्, किन्तु पठितवान्, पठितवती एतानि पदानि कृदन्तपदानि. साधारणतया वयं तिङन्तपदानि एव क्रियापदानि इति वदामः, किन्तु कृदन्तपदाः, कृदन्तपदानि इत्युक्ते पठितवान्, पठितवती एतानि पदानि सुबन्तपदानि इति वदामः. किन्तु तत्र सुबन्तः इत्युक्ते किम् इति वयं व्याकरणकक्षायां पठामः. सुबन्तः इत्युक्ते सुप् इति एकः प्रत्ययः, सुप् अन्ते यस्य सः, सुबन्तः इत्युक्ते एतेषु पदेषु अन्ते सुप् प्रत्ययः अस्ति इति अर्थः. तदर्थं तस्य नाम अस्ति सुबन्तः. अत्र कृदन्तपदानि सर्वाणि सुबन्तपदानि इति वदामः. अत्र अधुना कथां पठामः. लक्ष्मी भगिनी भवती पठतु कथाम्.
एतां कथाम् उच्चैः पठत. महर्षिः वाल्मीकिः तमसानद्याः तीरे वसति स्म. एकदा देवर्षिः नारदः तस्य आश्रमम् आगतवान्. वाल्मीकिः नारदं प्रणम्य उक्तवान्, अस्ति मम जिज्ञासा लोके कः श्रेष्ठपुरुषः इति. नारदः वाल्मीकिं प्रत्युक्तवान्, अयोध्यायां दशरथः इति महाराजः अस्ति, तस्य तिस्रः भार्याः सन्ति, तासु ज्येष्ठ कौसल्या, तस्याः पुत्रः रामः, दशरथस्य द्वितीया भार्या सुमित्रा, तस्याः लक्ष्मणः शत्रुघ्नः च इति द्वौ पुत्रौ स्तः. कनिष्ठा भार्या कैकेयी, तस्याः पुत्रः भरतः. एवं दशरथस्य चत्वारः पुत्राः सन्ति. एवं नारदः रामस्य कथां वक्तुम् आरम्भवान्. दशरथः रामं युवराजं कर्तुम् इष्टवान्, परन्तु कैकेयी तस्याः पुत्रं भरतम् एव युवराजं कर्तुम् इष्टवती. सा दशरथं स्मारितवती च यत् भवान् पुरा द्वौ वरौ दत्तवान्, तौ इदानीं पृच्छामि मम प्रथमः वरः रामस्य चतुर्दशवर्षाणां वनवासः भवतु इति, द्वितीयः वरः भरतः युवराजः भवतु.
तथा स्थगयामः अत्र इति. अत्र किञ्चित् प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. एतां कथाम् उच्चैः पठत इति अस्ति. एतां कथाम् अत्र द्वितीयविभक्ति बहुवचनं. वयं जानीमः कथा आकारान्तपदं, किन्तु अत्र एतां शब्दस्य कथा इति आकारान्तस्त्रीलिङ्गपदमस्ति. उच्चैः इति अव्ययमस्ति. पठत पठत इति पदं लोट् लकारः इति वदामः. लोट् वयं जानीमः पठतु पठतु पठतां पठन्तु. केवलम् अस्माकम् अभ्यासपुस्तके पठतु पठन्तु एव लिखितमस्ति, किन्तु प्रत्येकस्य प्रत्येकं क्रियापदस्य नवरूपाणि भवन्ति. कथं पठतु पठतां पठन्तु, पठ पठतं पठत, पठानि पठाव पठामः. अत्र पठत इति पदं मध्यमपुरुषबहुवचनं. अपि च अत्र रामायणम् इति वदामश्चेत् रामायणम् इति पदं कथम् आगतम् इत्युक्ते रामस्य अयनम्, अयनम् इत्युक्ते जर्णि, रामस्य अयनं रामायणम्. अत्र अयनम् ऐ धातुः अस्ति, तस्मात् एव गतौ इत्यस्मिन् अर्थे अयते. साधारणतया वयं शृणुमः दक्षिणायनम् उत्तरायणं, तथा एव अत्र रामायणम् अयनम् इत्युक्ते जर्णि इति अर्थः. अत्र प्रथमं वाक्यमस्ति महर्षिः वाल्मीकिः तमसा नद्याः तीरे वसति स्म. अवगतवती वा भगिनि? उत्तमम्. इत्युक्ते महर्षिः वाल्मीकिः, अत्र महर्षिः इति पदमपि समस्तपदम्. अत्र महर्षिः इत्युक्ते महान् ऋषिः इति वक्तव्यं. वाल्मीकिः इत्युक्ते संस्कृतभाषायां वल्मीकम् इत्युक्ते, वल्मीकम् इत्युक्ते आण्ट् हिल् इति अर्थः. वल्मीके भवः, यः वल्मीके तिष्ठवान् स्थितवान् क्षम्यतां स्थितवान् सः वाल्मीकिः. वल्मीकम् इत्युक्ते आण्ट् हिल् अर्थः. महर्षिः वाल्मीकिः तमसा नद्याः तीरे, अत्र रूपं वदतु कादम्बरी भगिनी. नद्याः तीरे, नद्याः नदी, नदी शब्दं जानीमश्चेत् वयं वदतु
बहुवचनं.
अत्र षष्टिविभक्ति एकवचनं. नदी शब्दं गौरी, नदी, नदी शब्दस्य भवत्याः नाम किं? वयं जानीमः भवती शब्दः ईकारान्तपदं. भवती शब्दस्य षष्टि एकवचनं किं? भवती. तत्र भवत्याः अस्माकम् अभ्यासपुस्तके प्रथमपुटे एव वयं पठितवन्तः. भवत्याः नाम किम् इति वदामः. अत्र नदी शब्दः अपि तादृशशब्दः एव, किन्तु अत्र तमसा नदी इति समस्तपदम्. नद्याः नाम अस्ति तमसा. तमसा नद्याः तीरे, तीरे इति सप्तमेकवचनं. वसति स्म इत्युक्ते भूतकालार्थी इत्युक्ते कदा, वयं न जानीमः कदा अभवत्, वयं न जानीमः तत्र रामायणं कदा अभवत् इत्युक्ते कदापि पूर्वस्मिन् काले अभवत्. अतः वसति स्म महर्षिः वाल्मीकिः तमसा नद्याः तीरे निवासं कृतवान् अथवा उषितवान् अथवा अवसत्. एतानि पदानि समानार्थकपदानि. उषितवान् वसति इति वस् धातोः रूपं क्तवतु प्रत्ययान्तरूपं योजयित्वा वदामश्चेत् उषितवान् इति भवति, अथवा अवसत् लङ्लकाररूपं. तदनन्तरम् एकदा देवर्षिः नारदः तस्य आश्रमं गतवान्. अवगतम्? अत्र अवगतं खलु भगिनि? अत्र एकदा इत्युक्ते एकवारं, कदा इत्युक्ते यदा वयं न जानीमः, कदाचित् एकवारं देवर्षिनारदः तस्य आश्रमं गतवान्. कस्य आश्रमं कादम्बरी भगिनी वदतु?
वाल्मीकस्य आश्रमम्।
उत्तमम् उत्तमम्। अत्र वाल्मीकिः इति पदम् इकारान्तपदमस्ति इति कृत्वा वाल्मीकेः आश्रमम्। उत्तमम्। अत्र मुनिशब्दवत् मुनिशब्दस्य रूपं मुनेः इति भवति। तदर्थं देवर्षिनारदः तस्य इत्युक्ते महर्षि वाल्मीकेः आश्रमम् आगतवान्। वयं पठितवन्तः आगतवान् आश्रमम् आगतवान् आश्रमम् इति कर्मपदम्। वाल्मीकेः वाल्मीकिः नारदं प्रणम्य अत्र पश्यतु नारदं प्रणम्य उक्तवान्। प्रणम्य प्रणम्य इति पदं लबन्तपदं कथं नमति वयं जानीमः सः देवं नमति वयं जानीमः किन्तु अत्र प्राय इति उपसर्गः अस्ति इति कारणतः क्त्वान्तरूपं न भवति। नम् धातोः रूपं नमति क्त्वान्तरूपं नत्वा किन्तु अत्र प्रा उपसर्गः अस्ति इति कारणतः ल्यबन्तरूपम् आयाति प्रणम्य इति। इत्युक्ते तत्र कार्यद्वयमस्ति सः प्रणामं कृतवान् तदनन्तरम् उक्तवान् अत्र कार्यद्वयमस्ति। अतः नारदः वाल्मीकिः नारदं प्रणम्य उक्तवान्। किमुक्तवान् मम जिज्ञासा अस्ति। जिज्ञासा इत्युक्ते अहं ज्ञातुमिच्छामि ज्ञातुम् इच्छा वयम् अहं पूर्वम् उक्तवती बुभुक्षा इत्युक्ते भोक्तुम् इच्छा किन्तु अत्र जिज्ञासा इति पदमस्ति। जिज्ञासा इति पदमपि सन्नन्तरूपं ज्ञातुम् इच्छा इति अर्थः। सः इच्छति किमिच्छति ज्ञातुमिच्छति। किं ज्ञातुमिच्छति इत्युक्ते तस्य वाल्मीकेः प्रश्नः कः इत्युक्ते अस्मिन् लोके कः पुरुषः श्रेष्ठः इति प्रश्नः अस्ति इति सः नारदः ज्ञातुमिच्छति क्षम्यतां वाल्मीकिः ज्ञातुमिच्छति। तदर्थं सः पृष्टवान्। कं पृष्टवान् नारदं पृष्टवान् प्रथमतया प्रणामं कृतवान् तदनन्तरं सः पृष्टवान् अस्मिन् लोके कः पुरुषः उत्तमः श्रेष्ठः इति पृष्टवान्। तदा नारदः वाल्मीकिं प्रत्युक्तवान् इत्युक्ते वाल्मीकिं प्रति उत्तरं दत्तवान् नारदः। यदा कदापि प्रश्नः अस्ति चेत् उत्तरं दातव्यं तदर्थं नारदः वाल्मीकिं प्रत्युक्तवान् उत्तरं दत्तवान्। किम् उक्तवान् अत्र अयोध्यायां दशरथः इति महाराजः अस्ति। तत्र कादम्बरी भगिनी वदतु अयोध्यायां वदति वा जानाति वा
सप्तमी विभक्ति।
उत्तमम् उत्तमम्। इत्युक्ते अयोध्या इति आकारान्तपदं स्त्रीलिङ्गपदं स्त्रीलिङ्गपदमस्ति इति कृत्वा सप्तमी एकवचनं अयोध्यायां कुत्र अयोध्यायां दशरथः इति महाराजः अस्ति। एकः राजा अस्ति तस्य नाम दशरथः। तस्य तिस्रः भार्याः सन्ति। वयं पठितवन्तः सङ्ख्यानां विषये भार्या इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा तिस्रः भार्याः सन्ति। यदि पुंलिङ्गपदमस्ति चेत् किं वदामः लक्ष्मीभगिनी किञ्चित् वदतु। अत्र भार्या इति पदं स्त्रीलिङ्गपदं तदर्थं तिस्रः इति लिखितमस्ति किन्तु पुंलिङ्गे वदामश्चेत् त्रयः त्रयः ग्रन्थाः वदतु।
त्रयः ग्रन्थाः सन्ति।
त्रयः ग्रन्थाः सन्ति अथवा त्रीणि काव्यानि सन्ति। वयं पठितवन्तः तिस्रः त्रयः त्रीणि एतानि सङ्ख्यावाचकपदानां विषये इत्युक्ते प्रथमचत्वारि पर्यन्तं सङ्ख्यापर्यन्तं तत्र लिङ्गम् अनुसृत्य रूपाणि भिद्यन्ते. तदर्थमेव अत्र तस्य इत्युक्ते कस्य? दशरथस्य. दशरथस्य तिस्रः भार्याः सन्ति. तासु, तासु इत्युक्ते भार्यासु, तासु महिलासु, तत्र तासु इति सप्तमी बहुवचनरूपं वयं पठितवन्तः. तत्र सा ते ताः यदि वयं तत् शब्दस्य स्त्रीलिङ्गरूपाणि पठामश्चेत् तासु, तस्यां, तयोः, तासु इति सप्तमी रूपाणि भवन्ति. तासु किमर्थमागतम् अत्र? बहुवचने इत्युक्ते त्रय, तिस्रः भार्याः सन्ति इत्युक्ते बहुवचने वक्तव्यम्. अतः तासु भार्यासु ज्येष्ठा भार्या कौसल्या, वयं जानीमः एव कस्याः नाम कौसल्या. अपि च कौसल्यायाः पुत्रः कः? रामः. अत्र तस्याः पुत्रः इति लिखितमस्ति. तस्याः इत्युक्ते कस्याः? कौसल्यायाः पुत्रः रामः. दशरथस्य द्वितीया भार्या सुमित्रा. सुमित्रायाः पुत्रः लक्ष्मणः, शत्रुघ्नः च. अत्र किं वदामः इत्युक्ते तौ द्वौ अपि यमलभ्रातरौ इत्युक्ते ट्विन्स्. यमलभ्राता इत्युक्ते ट्विन्स् इति वदामः. लक्ष्मणः अपि च शत्रुघ्नः, शत्रुघ्नस्य यमलभ्राता लक्ष्मणः इत्युक्ते ट्विन्स्. तस्याः सुमित्रायाः, सुमित्रायाः द्वौ पुत्रौ स्तः. लक्ष्मणः, शत्रुघ्नः च इति द्वौ पुत्रौ स्तः. पश्यतु भगिनि अत्र द्वौ, वयं अत्र पुत्रद्वयमस्ति, इ हेस् टु सन्स्. अतः अत्र द्विवचने वक्तव्यं, किन्तु अस्माकं अभ्यासपुस्तके इदानीं पर्यन्तं वयं द्विवचनं न पठितवन्तः. किन्तु अस्यां कथायां द्विवचने लिखितमस्ति. किन्तु इत्युक्ते लक्ष्मणः, शत्रुघ्नः इति पुत्रद्वयमस्ति इति कृत्वा द्विवचने वाक्यं लिखितमस्ति. द्वौ पुत्रौ इति अत्र पुत्रशब्दः पुंलिङ्गपदं. पुत्रः, पुत्रौ, पुत्राः. पुत्रः एकवचनं, पुत्रौ द्विवचनं, पुत्राः बहुवचनं. अतः द्विवचने वाक्यं लिखितमस्ति. तथा एव अत्र क्रियापदं पश्यतु, अस्ति, सन्ति एव वयं जानीमः इदानीं पर्यन्तं. किन्तु अत्र द्विवचने क्रियापदं लिखितमस्ति. अस्ति, स्तः, सन्ति. स्तः इति द्विवचनरूपं, स्तः इति क्रियापदस्य द्विवचनरूपम्. अस्ति, स्तः, सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः. इत्युक्ते प्रत्येकं क्रियापदस्य नवरूपाणि भवन्ति. अग्रे गत्वा वयं पठिष्यामः. उत्तमम्. अनन्तरं कनिष्ठा भार्या कैकेयी. अत्र पश्यतु, श्रेष्ठः इति वयं जानीमः. तथा एव अत्र कनिष्ठः, अत्र संस्कृतभाषायाम् इष्टन् इति एकः प्रत्ययः अस्ति, इष्टन् प्रत्ययः. तेन श्रेष्ठः, गरिष्ठः, वरिष्ठः, कनिष्ठः तादृशानि पदानि सिद्ध्यन्ति. तेषां निर्माणं तथा भवति. इष्टन् इति एकः प्रत्ययः इत्युक्ते दशरथस्य कनिष्ठा भार्या कैकेयी. कैकेयी इति पदं तत्र किं वदामः? तत्र केकयानां राजा कैकेयः इति वदामः. केकय इति तत्र केचन जनाः सन्ति, तेषां नाम अस्ति केकयाः. केकयानां राजा कैकेयः, तस्य पुत्री, तस्य पुत्री कैकेयः, तस्य पुत्री एव कैकेयी. तत्रापि भिन्नप्रत्ययः अस्ति. उत्तमम्. अनन्तरं कैकेय्याः, वयं षष्ठीविभक्ति वयं पठितवन्तः. तत्र कैकेय्याः पुत्रः, तत्र कैकेयी इति पदं नदीशब्दवत् नद्याः, तथा एव अत्र कैकेय्याः पुत्रः भरतः. एवं दशरथस्य चत्वारः पुत्राः सन्ति. अत्र पश्यतु, पुत्राः इति पुंलिङ्गबहुवचनम्, अतः चत्वारः पुत्राः. यदि नपुंसकलिङ्गे वाक्यं वदामश्चेत्, तत्र पदं नपुंसकलिङ्गे अस्ति चेत् कीदृशं रूपम् आयाति? चत्वारि पुस्तकानि. पुस्तकम् इति पदं नपुंसकलिङ्गपदमस्ति चेत् चत्वारि पुस्तकानि. किन्तु अत्र पुत्रः इति पदं पुंलिङ्गपदम्, अतः चत्वारः पुत्राः सन्ति. कस्य?
दशरथस्य.
दशरथस्य, उत्तमम्. एवं रीत्या, एवम् इत्युक्ते इन् दिस् मेनर्, ईदृशरीत्या कथं सुमित्रायाः पुत्रद्वयं, कैकेय्याः पुत्रः भरतः, कौसल्यायाः पुत्रः रामः, तादृश तथा दशरथस्य चत्वारः पुत्राः सन्ति. एवं नारदः रामस्य कथां वक्तुम् आरब्धवान् इत्युक्ते ईदृशरीत्या. किमर्थम् अत्र उपरि वाल्मीकिः नारदं पृष्टवान्, किञ्चित् वदतु अस्मिन् लोके श्रेष्ठपुरुषः कः, तस्य उत्तरं किञ्चित् वदतु, अहं ज्ञातुमिच्छामि इति वदति. अतः नारदः रामस्य कथाम् इत्युक्ते रामायणं वक्तुम् आरब्धवान्. वक्तुं वयं पठितवन्तः, तुमुन्, तुमुन् प्रत्ययः. अहं देवालयं गच्छामि. किमर्थं? नन्तुं, देवं नन्तुं गच्छामि. नो चेत् अहं विद्यालयं गच्छामि. किमर्थं? पठितुम्. अहं पठितुं विद्यालयं गच्छामि. तुमुन् प्रत्ययान्तरूपं. सः नारदः रामस्य कथां वक्तुम् आरब्धवान्. एतदपि तवत्वन्तरूपम्, आरम्भं कृतवान् अथवा तथा भवति. दशरथः रामम् अत्र कथायां किम् अभवत्, रामायणम् अधुना सः वक्तुम् आरम्भं कृतवान्. दशरथः आरम्भे किं भवति रामायणे? दशरथः रामं युवराजं कर्तुम् इष्टवान्. अत्र पश्यतु, इष्टवान्. कादम्बरी भगिनी, किञ्चित् ऊहां करोतु, तत्र लट् रूपं किं भवति इष्टवान्?
इच्छति.
उत्तमम्. इच्छति, उत्तमम्, उत्तमम्. इष् धातोः रूपम् इच्छति. सः रामं युवराजं कर्तुम् इष्टवान्. इष् धातोः रूपम् इच्छति, कर्तुम् इष्टवान्. अत्र रामम् इति पदं कर्मपदं, युवराजं, युवराजः कर्तुम् इष्टवान्. कथायाम् इतोपि किम् अभवत्? परन्तु तत्र का बाधा आगतः. बाधा का इत्युक्ते, परन्तु कैकेयी तस्याः पुत्रं, कैकेय्याः पुत्रः कः अत्र? भरतः. कैकेयी तस्याः पुत्रं भरतम् एव युवराजं कर्तुम् इष्टवती. पश्यतु, इष्टवान्, इष्टवती, वयं जानीमः एव तावत् रूपाणि. भरतं युवराजं कर्तुम् इष्टवती का? कैकेयी. किन्तु दशरथस्य आशयः भिन्नः, कैकेय्याः आशयः भिन्नः. दशरथः तु रामं युवराजं कर्तुम् इष्टवान्, किन्तु कैकेयी भरतं युवराजं कर्तुम् इष्टवती. तदा तत्र सङ्घर्षः अभवत्. तदा इतोपि सा किं कृतवती कैकेयी? सा दशरथं स्मारितवती च, स्मारितवती, वयं पठितवन्तः, स्मरति, स्मरति क्रियापदं वयं जानीमः. स्मरति इत्यस्य रूपं स्मृतवती. स्मृतवती एकं पदमस्ति, किन्तु अत्र स्मारितवती, शी रिमैण्डेड्. अत्र स्मृधातोः रूपं स्मरति, स्मृतवती इति साधारण कृतवत्वन्तरूपं, किन्तु अत्र निजन्तरूपं, यथा पठति पाठयति, स्मरति स्मारयति. स्मरणं पदमस्ति, स्मारणं पदमपि अस्ति. अत्र स्मारितवती, अत्र स्मृतवती इत्युक्ते शी रिमेम्बर्ड्, बट् शी अत्र किं दत्तमस्ति, रिमेम्बर्ड् इति न दत्तमस्ति. किं शी रिमैण्डेड्, शी मेड् ह मेड् हिम् रिमेम्बर् दट्. इत्युक्ते कैकेयी दशरथं स्मारितवती, अत्रापि तवत् रूपमेव स्मारितवती, किन्तु स्मारयति इति पदात् निजन्तरूपात् आगतं. स्मरति स्मारयति, स्मृतवती स्मारितवती, भिन्नानि पदानि एतानि. च यत् भवान् पुरा द्वौ वरौ दत्तवान्, अत्रापि पश्यन्तु द्वौ वरौ वाक्यं द्विवचने अस्ति, सः वरद्वयं दत्तवान्. द्वौ वरौ, वरः इति पुंलिङ्गपदं, द्विवचने रामः रामौ रामाः, तथा एव वरः वरौ द्विवचनरूपं. भवान् पूर्व पुरातनं काले द्वौ वरौ दत्तवान्, मह्यं दत्तवान्. सा उक्तवती कैकेयी दशरथं प्रति, तौ द्वौ वरौ इदानीं पृच्छामि, अधुना अहं पृच्छामि, मह्यं ददातु इति कैकेयी वदति. मम प्रथमः वरः रामस्य चतुर्दशवर्षाणां वनवासः भवतु. अत्र भवतु वयं जानीमः लोट्लकाररूपं, पठतु भूधातोः रूपं भवतु. अत्र तस्याः वरः, प्रथमः वरः कः? रामस्य चतुर्दशवर्षाणां वनवासः, तस्य रामस्य चतुर्दशवर्षपर्यन्तं वनवासगमनं भवतु इति मम प्रथमः वरः. द्वितीयः वरः भरतः युवराजः भवतु इति सा पृष्टवती. अनन्तरम् अत्र शीघ्रं समापयामः. द्वितीयं करपत्रम् अपि पठतु भगिनी. लक्ष्मी भगिनी भवती एव पठतु अत्र.
एतत् श्रुत्वा दशरथः दुःखितः अभवत्, तथापि सः वचनबद्धः आसीत्. अतः यथा कैकेयी पृष्टवती तथा एव भवतु इति दशरथः अङ्गीकृतवान्. रामः पितृवाक्यपरिपालनार्थं वनः गतवान्. तेन सह पत्नी सीता, भ्राता लक्ष्मणः च गतवन्तौ. दशरथः शोकं सोढुम् असमर्थः अभवत्, सः मृतः च. भरतः राज्यं कर्तुं न इच्छति स्म, सः वनं गत्वा रामस्य पुनरागमनं प्रार्थितवान्. किन्तु सत्यवाक्यः रामः निराकृत्य वने एव स्थितवान्. एवं ते त्रयः त्रयोदशवर्षाणि वने उषितवन्तः. तदा रावणः कपटेन सीताम् अपहृतवान्, तां लङ्कां नीतवान्. रामः लक्ष्मणः च सीतायाः अन्वेषणार्थम् आञ्जनेयस्य साहाय्येन सुग्रीवम् उपगतवन्तौ. रामः सुग्रीवस्य भ्रातरं हत्वा तेन मैत्रीं कृतवान्. आञ्जनेयः समुद्रम् उल्लङ्घ्य लङ्कां प्राप्तवान्. तत्र अशोकवने सीतां दृष्टवान्, तस्याः सान्त्वनं च कृतवान्. सः लङ्कां गत्वा पुनः रामं प्राप्तवान्, तं सर्वं वृत्तान्तं कथितवान् च. लङ्कां गन्तुम् उद्युक्तः च अभवत्. वानराणां सहायेन समुद्रे सेतुं निर्मापितवान्. लङ्कायां लक्ष्मणः कुम्भकर्णमारितवान्. रामः रावणं च रामः विभीषणः लङ्काराजः इति नियुङ्गितवान्. सः सीतां प्राप्य अयोध्यां निवर्तितवान्. जनाः आनन्देन रामस्य पट्टाभिषेकम् आचरितवन्तः. रामः धर्मेण राज्यभारम् उडवान्. एषः रामः गुणवान् वीर्यवान् धर्मज्ञः कृतज्ञः सत्यवाक्यः दृढव्रतः च आसीत्. एतां कथां श्रुत्वा वाल्मीकिः सन्तुष्टः अभवत्.
उत्तमं, शीघ्रं समापयामः. किञ्चित् वदामि. एतत् श्रुत्वा इत्युक्ते तत्र वरद्वयं पृष्टवती तदर्थम् एतत् सर्वं या तस्य भार्या कैकेयी, दशरथस्य भार्या कैकेयी या यदुक्तवती तत् सर्वं श्रुत्वा दशरथः दुःखितः अभवत्. अत्र अभवत् इति पदं लङ्लकाररूपं भवति. वयं जानीमः भवति इति पदस्य रूपमेव अभवत्. भूधातुः अस्ति किन्तु लङ्लकाररूपं. दशरथः दुःखितः अभवत्. दशरथः इति पदस्य विशेषणं दुःखितः. दुःखितः भूत्वा किं कृतवान्? तथापि सः वचनबद्धः आसीत्. वचनबद्धः इत्युक्ते वचनैः बद्धः इत्युक्ते किं वक्तव्यम् अत्र? सः वरं दातुम् इष्टवान्, वरद्वयमपि दातुम् इष्टवान्. तदर्थम् अतः यथा कैकेयी पृष्टवती तथा एव भवतु. सा वरद्वयं पृष्टवती तथा एव भवतु इति दशरथः अङ्गीकृतवान्. वयं जानीमः अङ्गीकारः तत्र अङ्गीकृतवान्, हि एक्सेप्टेड् इति अर्थः. तथा एव भवतु. रामः पितृवाक्यपरिपालनार्थं, पश्यतु किमर्थं कीदृशं पदमस्ति, बहु दीर्घं पदमस्ति. पितृवाक्यम् इति समस्तपदमस्ति. तत्र साधारणतया समस्तपदेषु प्रातिपदिकं स्वीकृत्य समस्तपदं निर्मामः. तत्र पिताशब्दस्य मूलरूपं प्रातिपदिकं रूपं पितृ. अतः अत्र पितृवाक्यं, पितृवाक्यपरिपालनार्थं रामः किं कृतवान्? वनं गतवान्, वनवासम् आचरितवान्. रामेण सह रामस्य पत्नी सीता अपि च तस्य भ्राता लक्ष्मणः च गतवन्तौ. अत्र पश्यतु गतवन्तौ द्विवचनरूपं. गतवान् इति वयं पठितवन्तः. गतवान् जानीमः, गतवन्तः जानीमः. अत्र द्विवचनं. किमर्थं? भ्राता लक्ष्मणः, पत्नी सीता इत्युक्ते अत्र जनद्वयम् अस्ति इति कारणतः द्विवचनरूपं वाक्ये आवश्यकम्. अतः तौ द्वौ गतवन्तौ. केन सह? रामेण सह. कुत्र गतवन्तः? वनवासं गतवन्तः, वनं गतवन्तः. ते सर्वे मिलित्वा अत्र वनवासं गतवन्तः. किन्तु द्विवचने वक्तुमिच्छामश्चेत् तौ द्वौ गतवन्तौ इति वक्तव्यं. दशरथः शोकं सोढुम् असमर्थः अभवत्. अत्र पदमस्ति शोकः इति पदमस्ति. शोकः इति पदं कर्मपदम्. अत्र शोकं कथं भवति इत्युक्ते तत्र सह धातुः अस्ति. सह धातोः रूपं सहते इति आत्मनेपदि. सहते इत्युक्ते टोलरेन्स् इत्यस्मिन् अर्थे सहते इति क्रियापदस्य तुमुन्नन्तं रूपं, यथा पठति पठितुं, गच्छति गन्तुं, तथा एव अत्र सहते इति क्रियापदस्य तुमुन्नन्तं रूपमेव सोढुं। वहति अस्ति, वहति अस्ति चेत् वोढुम् इत्युक्ते तत्र भिन्नभिन्नसन्धिकार्याणि भवन्ति, तदर्थमेव कानिचन रूपाणि किञ्चित् भिन्नानि भवन्ति। वहति वोढुं, सहति सोढुम्। अत्र दशरथस्य स्थितिः का? तस्य स्थितिः सः बहु दुःखम् अनुभूतवान्, सः शोकं सोढुम् असमर्थः अभवत्। हि कुडन्ट् टालरेट् दट् पेन् इति अर्थः। तदा किम् अभवत्? तेन किम् अभवत्? सः मृतः। अत्र मृतः इति पदं क्तान्तपदं। संस्कृतभाषायां मृ इति धातुः अस्ति, मृ धातोः रूपमेव म्रियते, जन् धातोः रूपं जायते, जायते इत्युक्ते बान्, म्रियते इत्युक्ते डेड्। मृ धातोः रूपम् अत्र मृतः। कः मृतः? दशरथः मृतः। किमर्थं? सः शोकं सोढुं न शक्तवान् इत्युक्ते इति कथायां अस्ति। अनन्तरं भरतः यदा दशरथः मृतवान् तदानीम् एव भरतः राज्यं कर्तुं न इच्छति स्म। अत्रापि यद्यपि रामः वनवासं गतवान्, भरतः तु राज्यभारं ओढुं न इष्टवान्, सः राज्यं कर्तुं न इष्टवान्। सः वनं गत्वा रामस्य पुनरागमनं प्रार्थितवान्। इत्युक्ते भरतः तदा तस्मिन्नेव समये राज्यभारम् ओढुं न इष्टवान्, अतः सः एकवारं वनं गत्वा रामं मिलित्वा, प्रभो अत्र पुनः अयोध्याम् आगच्छतु इति पुनरागमनार्थं सः रामं प्रार्थितवान्। किन्तु रामः सत्यवाक्यः, सदा सः सत्यवाक्यपरिपालनं करोति, अतः रामः निराकृत्य, पश्यतु अत्र निराकरोति इत्युक्ते सः अङ्गीकरोति। एकवारं सः वाक्यं दत्तवान्, तदर्थं सः भरतस्य वचनम् अश्रुत्वा, इत्युक्ते सः सत्यवाक्यपरिपालनं कृत्वा निराकृत्य वने एव स्थितवान्। इत्युक्ते चतुर्दशवर्षाणि वने स्थातव्यं, तदर्थं केवलं चतुर्दशवर्षाणि सः वने एव स्थितवान्। एवं रीत्या ते त्रयः त्रयोदशवर्षाणि वने उषितवन्तः। त्रयः इत्युक्ते त्रयः के? रामः, लक्ष्मणः, सीता च। ते त्रयः इत्युक्ते अत्र यद्यपि सीता स्त्रीलिङ्गपदमस्ति, तथापि अत्र रामः लक्ष्मणः इति अस्ति इति कृत्वा अत्र ते त्रयः इति पुंलिङ्गे दत्तमस्ति। त्रयोदशवर्षाणि इत्युक्ते 13 इयर्स्, वयं पठितवन्तः सङ्ख्याः त्रयोदश, चतुर्दश, पञ्चदश, तादृशरीत्या वने उषितवन्तः। एतत् पदं किञ्चित् नूतनं पदम्, उषितवन्तः। वसति वयं जानीमः, वस् धातोः रूपमेव उषितवान्, उषितवान् एकवचने वदामश्चेत् उषितवान्, बहुवचने उषितवन्तः, उषितवान्, उषितवान्, उषितवन्तौ, उषितवन्तः। अत्र बहुवचनरूपम् आवश्यकम्। अतः तदा रावणः कपटेन सीताम् अपहृतवान्। कपटेन, कादम्बरी भगिनी वदतु, विभक्तिः का अस्ति वा भगिनि? शीघ्रं समापयामः। कपटः, कपटेन इति तृतीयांशं रूपं। सीताम् अपहृतवान्, तां लङ्कां नीतवान्, नयति, अत्र नी धातोः रूपमेव नीतवान्। कां नीतवान्? सीतां नीतवान्। कुत्र? लङ्काम् इत्युक्ते रावणः सीताम् अपहृत्य लङ्कां नयति अनयत् अथवा आनीतवान्। तदनन्तरं रामः लक्ष्मणः च सीतायाः अन्वेषणार्थम् इत्युक्ते सा रावणः सीताम् अपहृतवान्, अतः तस्याः अन्वेषणार्थम् आञ्जनेयस्य साहाय्येन सुग्रीवम् उपगतवन्तौ इति द्विवचनरूपम्, उपगतवान् इत्यस्य रूपं तत्र कृतवत्वन्तरूपं द्विवचने लिखितमस्ति। उपगतवन्तौ तम् उपगतवन्तौ सुग्रीवम् उपगतवन्तौ इत्युक्ते तत्र एकः वानरः अस्ति सुग्रीवः नाम्ना, तं वानरम् उपगतवन्तौ कौ? रामः च लक्ष्मणः च। किमर्थं? सीतायाः अन्वेषणार्थं। तत्र कः साहाय्यं कृतवान्? आञ्जनेयः तयोः साहाय्यं कृतवान् सीतान्वेषणार्थं। तत्र रामः सुग्रीवस्य भ्रातरं हत्वा, अत्र पश्यतु, हत्वा इति पदमस्ति, हन्ति इति एकं पदमस्ति संस्कृतभाषायां, हन्ति हन् धातोः रूपं, हन्ति हन् धातोः रूपमेव हत्वा, हन्ति इत्युक्ते मारयति इति अर्थः। रामः किं करोति? सुग्रीवस्य भ्रातरं हत्वा, अत्र भ्राता वयं जानीमः, भ्राता इति पदं पिता शब्दवत् रूकारान्तपदं, भ्रातरं, भ्राता, भ्रातरौ, भ्रातरः, भ्रातरं द्वितीय एकवचनं, द्वितीयाविभक्ति एकवचनं, रुकारान्तपदं भ्राता। सुग्रीवस्य भ्राता का? वालिः। सुग्रीवस्य भ्राता वालिः वालिं हत्वा तेन मैत्रीं कृतवान्। तेन इत्युक्ते केन? सुग्रीवेण मैत्रीं कृतवान्। आञ्जनेयः समुद्रम् उल्लङ्घ्य, अत्र पश्यतु उल्लङ्घ्य इति पदमस्ति, उल्लङ्घ्य इति पदमपि ल्यबन्तरूपम्, उल्लङ्घ्य इत्युक्ते उत् इति उपसर्गः अस्ति, लङ् इति धातुः लङ् धातोः रूपमेव, लङ्घते उल्लङ्घनं कृत्वा, उल्लङ्घ्य इत्युक्ते स्वाम् अक्रास् तत्र समुद्रम् उल्लङ्घ्य। आञ्जनेयः किं कृतवान्? सीतायाः अन्वेषणार्थं लङ्कां प्राप्तवान्। कथं प्राप्तवान् इत्युक्ते लङ्कां गतवान्। समुद्रं कथम् इत्युक्ते समुद्रम् उल्लङ्घ्य लङ्कां प्राप्तवान्। तत्र अशोकवने सीतां दृष्टवान्, तत्र सीता माता अशोकवने स्थिता, सः आञ्जनेयः अशोकवने सीतां दृष्टवान्, तस्याः सान्त्वनं कृतवान्। सान्त्वनम् इत्युक्ते तस्य दुःखं सन्तापहरणं कृतवान् इत्युक्ते सा दुःखिता अस्ति आसीत्, तदर्थं सः आश्वासनं दत्तवान्, अश्यूरेन्स् दत्तवान् माता तत्र इतोपि किं वक्तव्यं, तस्य शोकस्य शोकं दूरीकृतवान्, तस्याः सीतायाः शोकं दूरीकृतवान्, सान्त्वनं च कृतवान्। तदनन्तरं सः लङ्कां दग्ध्वा पश्यतु, अत्र दह इति धातुः अस्ति, दह धातोः रूपमेव दग्ध्वा, दहनं कृत्वा इति अर्थः। दह धातोः रूपं दहनं, दहनम् इत्युक्ते बर्निङ्ग्। सः कः? आञ्जनेयः। आञ्जनेयः लङ्कायाः दहनं कृत्वा पुनः रामं प्राप्तवान् इत्युक्ते तत्र एकदा सः लङ्कां गतवान्, तदनन्तरम् एतत् सर्वं सीतां दृष्ट्वा लङ्कां दग्ध्वा पुनः प्रत्यागतवान्, रामं प्रति आगतवान्, रामं प्रति आगत्य सः सर्वम् उक्तवान्, सीता अशोकवने अस्ति, अहं दृष्टवान्, तदर्थं वयं सर्वे गन्तव्यं तत्र गत्वा रावणः मारणीयः, अतः वयं तादृशरीत्या सः आञ्जनेयः रामम् उक्तवान्, तं सर्वं वृत्तान्तं कथितवान्, तत्र कथयति इति क्रियापदमस्ति, तस्मात् एव अत्र कथितवान् इत्युक्ते उक्तवान्, सर्वं वृत्तान्तम् उक्तवान्। यद् अभवत् लङ्कायां, यत् सर्वम् अभवत् तत् सर्वं सः विवृणोति, विवरणं दत्तवान्, लङ्कां गन्तुम् उद्युक्तः च अभवत्। वानराणां साहाय्येन, अत्र वानराणां पश्यतु, अत्र वानरः इति पदं पुंलिङ्गपदम्, अपि च तस्मिन् रकारः अस्ति इति कारणतः णत्वं, वयं पठितवन्तः यत्र यत्र णत्वमस्ति तत्र रेखः अस्ति चेत् णकारः आयाति, रामेण, रामाणां, किन्तु फलानां रेफः अस्ति एव चेदेव तत्र णत्वं भवति। अत्र वानरः इति पदस्य षष्ठी बहुवचनरूपं, वानराणां, केषां साहाय्येन, वानराणां साहाय्येन, समुद्रे सप्तमीरूपं, सेतुं निर्मापितवान्, सेतुः इत्युक्ते ब्रिड्ज्, सेतुः निर्मापितवान्, अत्र पश्यतु निर्मितवान् इति नास्ति, निर्मापितवान्, निर्मापितवान् इत्युक्ते अत्र निर्मापयति, यथा पठति पाठयति, गच्छति गमयति, ददाति दापयति, तथा एव अत्रापि निजन्तरूपम् इति वदामः, सः स्वयं न कृतवान्। तत्र आञ्जनेयः सः स्वयं सेतुं न निर्मितवान्, सः निर्मापितवान्, अन्येषां वानराणां साहाय्येन सेतुं निर्मापितवान्, लङ्कायां लक्ष्मणः कुम्भकर्णं च मारितवान्, मारितवान्, अत्र मारयति इति रूपमस्ति, लङ्कायां सप्तमी एकवचनरूपं, रावणं, रावणः रावणं च, किमस्ति रामः रावणं च, ओ ओ अत्र पश्यतु लङ्कायां लक्ष्मणः कुम्भकर्णं मारितवान्, अत्र विशेषः अस्ति, कः कस्य मारणं कृतवान्, लङ्कानगर्यां लक्ष्मणः कुम्भकर्णं मारितवान्, रामः रावणं मारितवान् इति अर्थः अत्र, इत्युक्ते तत्र द्वौ भ्रातरौ, लक्ष्मणः कुम्भकर्णं, रावणः रावणं मारितवान्, रामः रावणं मारितवान् इति लिखितमस्ति, रामः विभीषणः लङ्काराजः भवतु इति नियुक्तवान्, इत्युक्ते नियोजितवान्, तत् किमर्थं रावणः मृतवान्, अतः तस्य भ्राता विभीषणः अस्ति, विभीषणः लङ्काराज्यस्य राजा भवतु इति तस्य नियोजनं कृतवान्, सः सीतां प्राप्य, अत्र प्राप्य इति पदमपि ल्यबन्तपदम्, अत्र कथं वदामः, प्रा इति उपसर्गः अस्ति, आप् धातुः, आप् धातोः रूपं वयं पठितवन्तः, आप्नोति प्राप्नोति इति पदानि वयं जानीमः, प्राप्नोति इति पदस्य ल्यबन्तरूपम् एव प्राप्य, अत्र विसर्गः उपसर्गः अस्ति, क्षम्यताम्, उपसर्गः अस्ति इति कारणतः प्राप्य, सीतां प्राप्य कुत्र आगतवान्, अयोध्यां निवर्तितवान् इत्युक्ते पुनरागतवान्, जनाः इत्युक्ते अयोध्यानगर्यां ये ये जनाः सन्ति ते सर्वे आनन्देन रामस्य पट्टाभिषेकम् आचरितवन्तः, रामः धर्मेण राज्यभारम् ऊढवान्, अत्र पश्यतु ऊढवान् इति पदमस्ति, वह् धातोः रूपं वहति, किन्तु क्तवतु रूपम् ऊढवान्, ऊढवति, वह् धातोः रूपम् ऊढवान्, एषः रामः कीदृशः, रामः कीदृशः इत्युक्ते अत्र रामस्य गुणाः उक्ताः, रामस्य लक्षणानि, रामः कीदृशः, किमर्थं रामायणं पठनीयम् इत्युक्ते रामः गुणवान्, वीर्यवान्, धर्मज्ञः, कृतज्ञः, सत्यवाक्यः, दृढव्रतः च आसीत् इत्युक्ते एतानि सर्वाणि लक्षणानि रामस्य लक्षणानि, अतः एव रामस्य नाम रामो विग्रहवान् धर्मः. तत्र पश्यन्तु कीदृशानि उत्तमानि पदानि लिखितानि. धर्मज्ञः इत्युक्ते यः पुरुषः धर्मं जानाति सः धर्मज्ञः इति अर्थः. धर्मज्ञः इति पदं समस्तपदम्. यः धर्मं जानाति सः धर्मज्ञः. तथा एव गुणवान् इति वदामश्चेत् यस्मिन् गुणाः सन्ति अथवा यस्य गुणाः सन्ति सः गुणवान्. स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् गुणवती, वीर्यवान् वीर्यवती, एतादृशानि पदानि. दृढव्रतः, तत्र बहु उत्तमानि पदानि. एतां कथां श्रुत्वा वाल्मीकिः सन्तुष्टः अभवत् इत्युक्ते उपरि वदतु मा
कृतज्ञः इत्युक्ते किं?
कृतज्ञता यः यः कोऽपि उपकारं करोति चेत् तस्याः तस्य कृते कृतज्ञतां दर्शयामः. इत्युक्ते थ्याङ्क्स् वदामः.
ग्रेट्फुल्.
ग्रेट्फुल्, ग्रेट्फुल्, उत्तमम्. इत्युक्ते रामः यः कोऽपि तस्य उपकारं करोति चेत् सः सर्वदा पुनः प्रत्युपकारं करोति. सः उत्तमः इति कृत्वा सः अत्र पश्यन्तु सुग्रीवः रामस्य साहाय्यम् अकरोत्. रामस्य साहाय्यं कृतवान्. तदा रामः कथं प्रत्युपकारं कृतवान्? सः कृतज्ञः भूत्वा किं कृतवान्? वालेः हननं कृत्वा सुग्रीवं राजां कृतवान्. इत्युक्ते तस्य तेन सह मैत्रीं कृतवान् सुग्रीवेण सह. इत्युक्ते रामः गुणवान्, कृतज्ञः इत्युक्ते भगिनी उक्तवती ग्रेट्फुल्. दृढव्रतः, दृढव्रतः इत्युक्ते सः एकदा प्रतिज्ञां स्वीकरोति तदा सः सर्वदा तां प्रतिज्ञां पालयति. सः किं कृतवान्? अहं चतुर्दशवर्षाणि वनवासं करोमि, मया कर्तव्यः इति सः ज्ञातवान्. किन्तु यद्यपि भरतः आगत्य पुनः अयोध्यानगरम् आगच्छतु इति पृष्टवान् चेदपि रामः पुनः अयोध्यानगरं पुनः न आगतवान्. केवलं रावणस्य मरणानन्तरम् एव सः पुनः एकवारम् अयोध्यानगरम् आगतवान्. अपि च राज्यभारम् ऊढवान्, राज्यं धर्मेण राज्यभारम् ऊढवान् इत्युक्ते उत्तमरीत्या राज्यपालनं कृतवान्. एतत् सर्वं कः उक्तवन्तः? कः उक्तवान्? क्षम्यतां, कः उक्तवान्? नारदः. नारदः वाल्मीकिः पृष्टवान्. अतः एतां कथां श्रुत्वा नारदः श्रावितवान्, वाल्मीकिः श्रुतवान्, अनन्तरं सः सन्तुष्टः अभवत्. उत्तमं, बहु कालातीतः अभवत्. धन्यवादः.
धन्यवादः भगिनी.
धन्यवादः. नमस्कारः.